ओम यम पृथ्वी सर्वेषां भूतानां मधो अस्यै पृथिव्यै सर्वाणि भूतानि मधु यस्यायमस्यां पृथिव्यां तेजोमयः अमृतमयः पुरुषः यस्यायमस्यात्मत्वं शारीरः तेजोमयो अमृतमयः पुरुषः अयमेव सः योऽयमात्मा इदमृतम् इदं ब्रह्म इदं सर्वम् पञ्चममिदं ब्राह्मणं द्वितीये अध्याये बृहदारण्यकोपनिषदि मधुब्राह्मणमिति नाम ब्रह्मदेव ब्रवाणी इत्यारभ्य अजाशत्रुब्राह्मणे आत्मेत्येवोपासिका इति विद्यासूत्रस्य व्याख्यानम् आरब्धम्। तत्र अन्ते गत्वा ब्रह्मणा स्वरूपम् असंसारिस्वरूपम् संसारधर्मवर्जितम् केवलम् सर्वव्यापकम् इत्यादि निरूपितं वर्तते। तस्य रहस्योपनिषत् सत्यस्य सत्यम् इत्युक्त्वा तस्य व्याख्या प्राणावैसत्यं तेषामेक सत्यम् इत्युक्तमस्ति। तादृश सत्यस्य षष्ट्यन्तसत्यस्य व्याख्याद्वयं ब्राह्मणद्वयेन व्याख्या कृता वर्तते, शिशुब्राह्मणेन मूर्तामूर्तब्राह्मणेन। प्रथमान्तसत्यस्य आधाता आदेशो नेति नेति नक्यन्यस्मादि नेत्यन्यस्वरमस्ति इत्यनेन सूत्रेण मन्त्रेण व्याख्या कृता अस्ति। यदा च ब्रह्मविद्यायाः साधनं ससन्यासम् आत्मज्ञानम् इति मोक्षस्य साधनम् उक्तमस्ति। तत्प्रतिपादनार्थं मैत्रेयी ब्राह्मणं प्रारब्धम्। मैत्रेयी ब्राह्मणे तावत् आत्मैकत्वम् इदं सर्वम् इदम् आत्मा इति प्रतिज्ञाय आत्मज्ञानेन सर्वं विज्ञातं भवति इत्यपि प्रतिज्ञामुक्त्वा तत्र इदं सर्वं हृदयमात्मा इति आत्म अभिन्नत्वं सर्वस्यापि प्रतिपादितम्। तत्र आत्मैकसामान्यम् आत्म उत्पत्तिः आत्मनसकाशात् उत्पत्तिः आत्मन्येव च प्रलयः इत्यादि दृष्टान्तपूगैः प्रदर्श्य सर्वम् आत्मैव इति निरूपणं कृतं। तदनन्तरं यत्र हि द्वैतमिव भवति इत्यनेन विज्ञानघनं वारे अयमात्मा इति आत्मनः स्वरूपं केवलं विज्ञानमात्रत्वं प्रतिपादितम्। एतत् सर्वम् अस्माभिः यथा वा मननार्थं निधिध्यासनार्थं तु उपयुज्यते, तदर्थम् अनन्तरब्राह्मणं प्रारब्धं। निगमनस्थानीयमिदं ब्राह्मणं, पूर्वं यदुक्तं तदेव इत्थमेव तद् इति निगमनार्थम् इदं ब्राह्मणं प्रवृत्तम्। ततः प्रथमतः इयं पृथिवी सर्वेषां भूतानां मधु, मधु इव मधु, यदा मधु तावत् मधुकरैः नानाविधपुष्पैः किञ्चित् किञ्चित् स्वीकृत्य एकस्मिन् स्थाने यथा निक्षिप्यते, मधु सर्वेषां मधुकराणां कार्यं भवति। तद्रीत्या इयं पृथिवी सर्वेषां प्राणिनां कार्यं भवितुमर्हति। यतः सर्वैरपि कृतपुण्यपापकर्मवशादेव इयं पृथिवी इत्थं सञ्जाता, भगवता निर्मिता वर्तते। तदनन्तरं यदा प्राणिनः सञ्जाताः तेषां तावत् कार्यत्वं एतादृशपृथिव्याः भवति। यतः पृथिवी सकाशादेव सर्वेषां तावत् जीवनं भविष्यति। अतः पृथिवी प्राणिनां कार्यं, प्राणयः प्राणिनः पृथिव्याः कार्यम् इति निरूपितं वर्तते। तद्रीत्या पृथिव्यामन्तः तेजोमयः अमृतयः अमृतमयः पुरुषः वर्तते, जीवस्यापि अन्तः लिङ्गशरीरं वर्तते तेजोमयः अमृतमयः इति। एतादृशरीत्या कार्यकारणरूपचतुष्टयमत्र उक्तमस्ति, भोक्ता भोग्यं, तद्रीत्या आध्यात्मतया अधिदैविकतया इत्यादिरीत्या चतुर्विधानामपि एतादृश पृथिवी जीवः अनन्तरं आत्मा लिङ्गशरीरं जीवगतलिङ्गशरीरं पृथिवीगतलिङ्गशरीरम् इति एतादृशचतुष्टयस्यापि स्वरूपं किम् इति चेत् अयमेव सः, अयमेव सः यः अजाशत्रुब्राह्मणे उक्तः ब्रह्मदेव ब्रवाणी इति। अतः इदं ब्रह्म मैत्रेयी ब्राह्मणे इदमेव अमृतम् इत्युक्तम्। इदमृतम् इदमृतम् इदं ब्रह्म यस्य विज्ञाने तावत् सर्वविज्ञानं भवति किं तत् इति इदं सर्वम् इति इदमृतम् इदं ब्रह्म इदं सर्वम् इति निगमनं कृतं वर्तते। तथा च विद्यासूत्रस्य व्याख्या अत्र परिसमाप्यते इति एतावता अत्र उक्तं भवति एतादृशमन्त्रस्य व्याख्या अधुना अस्माभिः द्रष्टव्या वर्तते।